धर्मस्य सर्वोधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। जननीं शारदां देवीं रामकृष्णं जगद्गुरुं पादपद्मे तयोस्थित्वा प्रणमामि मुहुर्मुहुः। नमः श्रीयतिराजाय विवेकानन्दसूरये सचित्सुखस्वरूपाय शामिने तापहरिणे। ॐ शान्ति शान्ति शान्ति।